ॐ मङ्गलं देशिकेन्द्राय यमिनां चक्रवर्तिने पराशक्तिस्वरूपिण्यै देव्यै भवतु मङ्गलम्। सत्यसन्धस्य भक्तस्य क्षुदीरामस्य सूनवे गदाधराय मेदिन्याम् अवतीर्णाय मङ्गलम्। गदाधरसुनाम्ने च भक्त्या वेष्टितचेतसे अनादृतान्यविद्याय मङ्गलं ब्रह्मचारिणे। भवतारणदक्षाय सन्निधौ दक्षिणेश्वरे अपूर्वकालिका पूजा निरतायास्तु मङ्गलम्। मधुरानाथ विश्वासा सेवानिर्वृतचेतसे तपश्चरणशीलाय योगीशायास्तु मङ्गलम्। साधकव्याजसन्दिष्टा सर्वाम्नाय सुवर्त्मने सर्वतन्त्रस्वतन्त्राय नित्यसिद्धाय मङ्गलम्। तपसि ब्रह्मचर्ये च या स्वस्य सहधर्मिणे तस्या श्रीशारदा देव्या भर्त्रे भवतु मङ्गलम्। तोतापुरी यति प्राप्ता चरमाश्रमहेतुके समाधौ निर्विकल्पाख्ये सुदीर्घस्थाय मङ्गलम्। स्थिताय मातुरादेशा जगदुद्धारकारणात् पूर्णाहन्ता स्थितौ भावा मुखे भवतु मङ्गलम्। पश्यति मातरं स्त्रीषु मृत्पिण्डं काञ्चने तथा सर्वभूतेषु च ब्रह्मा मायातीताय मङ्गलम्। सदा रूपि विरक्तानां यतीनां पुरतस्तु या सदाशिवस्वरूपाय तस्मै भवतु मङ्गलम्। ब्रह्मानन्दादिसच्छिष्या गणपूज्यपदायते तेषु दीप्तात्मबोधाय परहंसाय मङ्गलम्। गर्जद्वेदान्तसिंहेन विवेकानन्दरूपिणा अपास्तनिद्रा भूर्येण कारिता तस्य मङ्गलम्। संसारसागरोत्तारा सेतुभूताङ्घ्रिरेणवे गुरवे सर्वलोकानां रामकृष्णाय मङ्गलम्। ॐ स्थापकाय च धर्मस्य सर्वधर्मस्वरूपिणे अवतारवरिष्ठाय रामकृष्णाय मङ्गलम्। मङ्गलं गुरुदेवाय देव्यै मात्रे च मङ्गलम्। मङ्गलं भक्तवृन्देभ्य सर्वलोकाय मङ्गलम्। मङ्गलं भक्तवृन्देभ्य सर्वलोकाय मङ्गलम्। मङ्गलं भक्तवृन्देभ्य सर्वलोकाय मङ्गलम्।